ॐ श्री परमात्मने नमः। अथ द्वितीयोऽध्यायः। संजय उवाच। तं तथा कृपयाविष्ट माश्रुपूर्णाकुले क्षणम् विषीदं तमिदं वाक्य मुवाच मधुसूदन। श्री भगवान् उवाच। कुतस्त्वाकस्मलमिदं विषमे समुपस्थितम्। अनार्यजुष्टमस्वर्ग्य मकीर्तिकरमर्जुन क्लैव्यमास्मदमः पार्थ नैतत्वयुपपद्यते। क्षुद्रम् कथं भीष्ममहं संखे द्रोणं च मधुसूदन। इषुभिः प्रतियोष्यामि पूजार्हावरिसूदन। श्रेयो भोक्तुं भैक्षमपीह लोके हत्वार्थकामास्तु गुरुनिहैव भुञ्जीय भोगान् रुधिर प्रदीग्धान् न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम देवस्थिताः प्रमुखे धार्तराष्ट्राः। कार्पाण्यदोषोपहत स्वभाव प्रेक्षामि त्वां धर्म सम्मूढचेताः। यश्रेयस्यान्वेषितं ब्रूहि तन्मे शीर्षास्तेऽहं साधिमां त्वां प्रपन्नम्। न हि प्रपश्यामि ममापनुद्या यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपत्नमृतम् राज्यं सुराणामपि चाधिपत्यम्। संजय उवाच। एवमुक्त्वा ऋषिकेशम् गुडाकेशः परन्तप न योत्स्य इति गोविन्द मुक्त्वा तूष्णीं बभूवः तमुवाच ऋषिकेशः प्रहसान्निव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे गतासून गतासूंश्च नानुशोचन्ति पण्डिताः न त्वेवाहं जातु नासं न त्वं ने मे जनाधिपाः न चैव न भविष्यामः सर्वे वयमतः परम् देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्तिर्धीरस्तत्र न मूयति मात्रा स्पर्शास्तु कौन्तेय सुखदुःखदा आगमापायि नो नित्यास्तांस्तितिक्षस्व भारत यं हि न व्यथयन्ते ते पुरुषं पुरुषर्षभ सुखं धीरं सोऽमृतत्वाय कल्पते नासतो विद्यते भावो नाभावो विद्यते सतः उभयोरपि दृष्टं तस्त्वनयोस्तत्त्वदर्शिभिः विनाशितु तद्विद्धि येन सर्वमिदं ततम् विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति अन्तवन्त इमे देहा नित्यस्योक्तः शरीरिणः अनाशिनो प्रमेयस्य तस्माद्युध्यस्व भारत य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् तौ न विजानीतो नायं हन्ति न हन्यते न जायते म्रियते वा कदाचित् नायं भूत्वा भवितावान् भूय अजो नित्यः शाश्वतोऽयं पुराणो न हान्यते हान्यमाने शरीरे वेदा विनाशिनं नित्यं य एन मजम व्ययम् कथं स पुरुषः पार्थ संघातयति हन्तिकम् वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि न्यन्यानि संयाति नवानि देहि छिन्दन्ति शस्त्राणि नैनं दहति पावक न चैनं क्लेदयन्त्यापो न शोषयति मारुतः अच्छेद्यो यमदायो यमक्लेद्यो शोष्य एव च नित्यः सर्वगतः स्थाणु रचलोऽयं सनातनः अव्यक्तोऽयं चिन्त्यो यमविकार्योऽयमुच्यते तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् तथापि त्वं महाबाहो नैवं शोचितुमर्हसि जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनान्येव अत्र का परिदेवना आश्चर्यवत् पश्यति कश्चिदेन माश्चर्यवद्वदति तथैव चान्यः आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वा केनं वेद न चैव कश्चित् देहि नित्यमवध्योऽयं देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि चावेक्ष न विकम्पितुमर्हसि धर्म्याद्धियुद्धाच्छेयोऽन्यत् क्षत्रियस्य न विद्यते यदृच्छया चोपपन्नम् स्वर्ग भोगैश्वर्यगतिं प्रति सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मणि वाधिकारस्ते मा फलेषु कदाचन मा कर्म फल हेतुर्भूर्माते संगोस्त्व कर्मणि योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनञ्जय सिद्ध्य सिद्ध्योः समो भूत्वा समत्वं योग उच्यते दूरेण यवरं कर्म बुद्धियोगाद् धनञ्जय बुद्धौ शरणमान्विच्छ कृपणाः फल हेतवः करिष्यति तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च श्रुतिविप्रतिपन्नाते यदा स्थास्यति निश्चला अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव स्थितधि प्रभाषेत किमासीत व्रजेत किम् श्री भगवान उवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् दुःखेष्वनुद्विग्नमनः सुखेषु विगतस्पृह वीतरागभयक्रोध स्थितधीर्मुनिरुच्यते यः सर्व नाभिनन्दति न द्वेष्टि कस्य प्रज्ञा प्रतिष्ठिता यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिनः रसवार्जं रसोप्यस्य परं दृष्ट्वा निवर्तते यततो ह्यपि कौन्तेय
निष्प्रिय
प्राप्य विमुह्यते स्थित्वा श्यामन्त कालेऽपि ब्रह्म निर्वाणमृच्छते तत्सत् श्रीमद्भगवद्गीता सूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयः।